ओम नमो भगवते वासुदेवाय। अथाष्टमोऽध्यायः। श्रीशुक उवाच, पीते गरे वृषाङ्केण प्रीतास्ते मरदानवाः, ममन्थुस्तरसा सिन्धुम् हविर्धानि ततोऽभवत्। तामग्निहोत्री मृषयो जगृहुर्ब्रह्मवादिनः, यज्ञस्य देवयानस्य मेध्याय हविषे नृप। तत उच्चैश्रवा नाम हयो भूच्चन्द्रपाण्डुरः, तस्मिन् बलिस्पृहाम् चक्रे नेन्द्र ईश्वरशिक्षया। तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः, दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम्। कौस्तुभाख्यमभूद्रत्नम् पद्मरागो महोदधेः, तस्मिन् हरिःस्पृहाम् चक्रे वक्षोऽलङ्करणे मणौ। ततो भवत्पारिजातः सुरलोकविभूषणम्, पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान्। ततश्चाप्सरसो जाता निष्कण्ठ्य सुवाससः, रमण्यः स्वर्गिणाम् वल्गूगतिलीलावलोकनैः। ततश्चाविरभूत् साक्षात् श्रीरमा भगवत्परा, रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा। तस्याम् चक्रुः स्पृहाम् सर्वे ससुरासुरमानवाः, रूपौदार्यवयो वर्ण महिमाक्षिप्तचेतसः। तस्यासनमानिन्ये महेन्द्रो महदद्भुतम्, मूर्तिमत्य सरिच्छ्रेष्ठा हेमकुम्भैर्जलम् शुचि। आपिशेचनिका भूमिराहरत् सकलौषधीः, गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ। ऋषयः कल्पयाञ्चक्रुरभिषेकम् यथाविधि, जगुर्भद्राणि गन्धर्वा नर्त्यश्च नन्दतुर्जगुः। मेघा मृदङ्गपणव मुरजानकगोमुखान्, व्यनादयञ्छङ्कवेणु वीणास्तुमुलनिस्वनान्। ततोऽभिशिशुचुर्देवीम् श्रियम् पद्मकराम् सतीम्, दिगिभा पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः। समुद्रः पीतकौशेय वाससी समुपाहरत्, वरुणस्रजम् वैजयन्तीम् मधुना मत्तषट्पदाम्। भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः, हारम् सरस्वती पद्ममजो नागाश्च कुण्डले। ततः कृतस्वस्तयनोत्पलस्रजम् नदद्विरेफाम् परिगृह्य पाणिना, चचालवक्त्रम् सुकपोलकुण्डलम् सव्रीडहासम् ददति सुशोभनम्। स्तनद्वयम् चातिकृशोदरी समम् निरन्तरम् चन्दनकुङ्कुमोक्षितम्। ततस्ततो नूपुरवल्गुसिञ्जितैर्विसर्पति हेमलते वसा बभौ, विलोकयन्ति निरवद्यमात्मनः पदम् ध्रुवम् चाव्यभिचारि सद्गुणम्। गन्धर्वयक्षासुरसिद्धचारण त्रैविष्टपेयादिषु नान्वविन्दत, नूनम् तपो यस्य न मन्युनिर्जयो ज्ञानम् क्वचित् तच्च न सङ्गवर्जितम्। कश्चिन्महान्स्तस्य न कामनिर्जयः, स ईश्वरः किम् परतो व्यपाश्रयः। धर्म क्वचित् तत्र न भूतसौहृदम्, त्यागः क्वचित् तत्र न मुक्तिकारणम्। वीर्यम् न पुंसोऽस्त्यजवेगनिष्कृतम्, न हि द्वितीयो गुणसङ्गवर्जितः। क्वचित् चिरायुर्न हि शीलमङ्गलम्, क्वचित् तदप्यस्ति न वेद्यमायुषः। यत्रोभयम् कुत्र च सोऽप्यमङ्गलः, सुमङ्गलः कश्चन काङ्क्षते हि माम्। एवम् विमृश्या व्यभिचारि सद्गुणैर्वरम् निजैकाश्रयता गुणाश्रयम्। वव्रे वरम् सर्वगुणैरपेक्षितम्, रमा मुकुन्दम् निरपेक्षमीप्सितम्। तस्याम् स देशौ सतीम् नवकञ्जमालाम्, आद्यन्मधुव्रतवरूथ गिरोपघुष्टाम्। तस्थौ निधाय निकटे तदुरस्वधाम, सव्रीडः स विकसन्नयनेन याता। तस्याश्रियस्त्रिजगतो जनको जनन्या, वक्षो निवासमकरोत्परमम् विभूतेः। श्रीस्वाः प्रजाः सकरुणेन निरीक्षणेन, यत्र स्थितै धयतसाधिपतीन् स्त्रिलोकान्। शङ्खतूर्यमृदङ्गानाम् वादित्राणाम् पृथुस्वनः, देवानुगानाम् सस्त्रीणाम् नृत्यताम् गायतामभूत्। ब्रह्मरुद्राङ्गिरो मुख्या सर्वे विश्वसृजो विभुम्, ईडिरे वितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः। श्रिया विलोकिता देवा स प्रजापतयः प्रजाः, शीलादिगुणसम्पन्ना लेभिरे निर्वृतिम् पराम्। निःसत्त्वालोलुपा राजन् निरुद्योगा गदत्रपाः, यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः। अथासीद्वारुणी देवी कन्याकमललोचना, असुराजगृहुस्ताम् वै हरेरनुमतेन ते। अथो दधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः, उदतिष्ठन् महाराज पुरुषः परमाद्भुतः। दीर्घपीवरदोर्दण्डः कम्बुग्रीवोरुणेक्षणः, श्यामलस्तरुणस्रग्वी सर्वाभरणभूषितः। पीतवासा महोरस्क सुमृष्टमणिकुण्डलः, स्निग्धकुञ्चितकेशान्तः सुभगः सिंहविक्रमः। अमृतापूर्णकलशम् बिभ्रद्वलयभूषितः, स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः। धन्वन्तरिति ख्यात आयुर्वेददृगिज्यभाक्, तमालोक्यासुरा सर्वे कलशं चामृताभृतं लिप्सन्तः सर्ववस्तूनि कलशं तरसाहरन् नीयमाने सुरैस्तस्मिन् कलशे मृतभाजने विषण्णमनसो देवा हरिं शरणमाययुः इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् मा खिद्यतमिथोऽर्थं वः साधयिष्ये स्वमायया मिथकलिरभूत्तेषां तदर्थे तर्षचेतसाम् अहं पूर्वम् नत्वं नत्वमिति प्रभो देवा स्वं भागमर्हन्ति ये तुल्याया स हेतवः सत्रयागै वै तस्मिन्नेष धर्मः सनातनः इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः एतस्मिन्नन्तरे विष्णुः सर्वोपायविधीश्वरः योषिद्रूपमनिर्देश्यम् दधार परमाद्भुतम् प्रेक्षणीयोत्पलश्यामम् सर्वावयवसुन्दरम् समानकर्णाभरणम् सुकपोलोन्नसाननम् नवयौवननिर्वृत्तस्तनभारकृशोदरम् मुखामोदानुरक्तालीझङ्कारोद्विग्नलोचनम् बिभ्रत्स्वकेशभारेण मालामुत्फुल्लमल्लिकाम् सुग्रीवकण्ठाभरणम् सुभुजाङ्गदभूषितम् विरजाम्बरसंवीतनितम्बद्वीपशोभया काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः दैत्ययूथपचेतस्सु काममुद्दीपयन्मुहुः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामष्टमस्कन्धे भगवन्मायोपलम्भनम् नामाष्टमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।